अथ सप्तमः स्कन्धः
अथ द्वादशोऽध्यायः ब्रह्मचर्य और वानप्रस्थ आश्रमों के नियम। नारद उवाच, ब्रह्मचारी गुरुकुले वसन् दान्तो गुरोर्हितम् आचरन् दासवल्लीचो गुरौ सुदृढ़ सहृदः सायं प्रातरुपासीत गुरुवग्नर्कसुरोत्तमान् उभे सन्धे च जत्वा जपन् ब्रह्मसमाहितः छन्द्यांसधीत गुरो राहुतश्चेत् सुजन्त्रितः उरुक्रमे वसाने च चरणौ शिरसा नमेत् मेखला जिनवासांसि जटादण्डकमण्डलुन् बिभ्रियादुपवीतं च दर्भपाणिर्जथोदितम् सायं प्रातश्चरेद् भैक्ष्यं गुरवे तन्निवेदयेत् भुञ्जीत यद्यनुज्ञातो नो चेदुपवशेत् क्वचित्। सुशीलो मितभुग्दक्षः शब्दधानो जितेन्द्रियः यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च वर्जयेत् प्रमदागाथामगृहस्थो बृहद्व्रतः इन्द्रियाणि प्रमाथिनि हरन्त्यपि जतेर्मनः केशप्रसाधनोन्मर्द स्नपनाभ्यञ्जनाधिकम् गुरुस्त्रीभिर्ज्वतिभिः कारेणात्मनोजुवा नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् सुतामपि रहो जह्याद् अन्यदा जावदर्थकृत् कल्पयित्वात्मना जावद् आभासमिदमीश्वरः द्वैतं तावन्न विरमेत् ततो यस् विपर्ययः। एतत् सर्वं गृहस्थस्य समाम्नातं जतेरपि गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः अञ्जनाभ्यञ्जनोन्मर्द स्त्यवलेखामिषं मधु स्वगन्धलेपालङ्कारास्तजेयुर्ये धृतव्रतः। उषित्तैवं गुरुकुले द्विजोद्धित्यावबुध्य च त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् दत्त्वा वरमनुज्ञातो गुरोः कामं जदीश्वरः गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत्। अग्नौ गुरौ वात्मनि च सर्वभूते सधोक्षजम् भूते स्वधामभिः पश्येद प्रविष्टम् प्रविष्टवत्। एवं विधो ब्रह्मचारी वानप्रस्थो जतिर्गृही चरन् विदितविज्ञानः परम् ब्रह्माधिगच्छति। वानप्रस्थस्य वक्ष्यामि नियमान् मुनिसम्मतान् जानातिष्ठन् मुनिर्गच्छद् ऋषिलोकमिहाञ्जसा न कृष्टपच्यमश्नेयाद् अकृष्टम् चाप्यकालतः अग्निपक्वमथामम् वा अर्कपक्वमुताहरेत्। वनैश्चरु पुरोडाशान् निर्वपेत्कालचोदितान् लब्धे नवे नवे नाद्ये पुराणम् तु परित्यजेत्। अग्न्यर्थमेव शरणम् उटजम् वाद्रिकन्धराम् श्रयेत् हिम वायग्नि वर्षार्कात्पसाट् स्वयम् केशरोम नखश्मश्रोमलानि जटिलो दधत् कमण्डलु अजिने दण्डबल्वल्कलाग्निपरिच्छदान् चरेद् वने द्वादशाब्दान् अष्टौ वा चतुरो मुनिः द्वौवेकम् वा यथा बुद्धि न विपद्येत कृच्छतः। यदा कल्पः स्वक्रियायाम् व्याधिर्भिर्जरयाथवा आन्वीक्षिक्याम् वा विद्यायाम् कुर्याद् अनशनादिकम् आत्मनि अग्निन् समारोप्य सम्यस्याहम् ममात्मताम् कारणेषु न्यसेत् सम्यक् संघातम् तु यथार्हतः। खे खानि वायोर्निःश्वासाम् तेजसी उष्माणमात्मवान् अपक्वश्रिक्ष्लेष्मपूयानि क्षितौ शेषम् यथोद्भवम् वाचमग्नौ सवक्तव्याम् इन्द्रे शिल्पम् करावपि पदानि गत्या वयसि रत्योपस्थम् प्रजापतौ मृत्योपायम् विसर्गम् च यथास्थानम् विनिर्दिशेत् दिक्षु श्रोत्रम् सनादेन स्पर्शमध्यात्मनि त्वचम् रूपाणि चक्षुषा राजन् ज्योतिषी अभिनिवेशयेत् अप्सु प्रचेतसा जिह्वाम् ह्रेयैर्घ्राणम् क्षितौ न्यसेत् मनो मनोरथैश्चन्द्रे बुद्धिम् बुद्ध्यैः कवौ परे कर्मण्याध्यात्मना रुद्रे जदहम् ममता क्रिया सत्त्वेन चित्तम् क्षेत्रज्ञे गुणे वैकारिकम् परे अप्सुच्छितिमपो ज्योतिषदो वायो नभस्यमुम् कुटस्थे तच्च महति तदव्यक्तेक्षरे च तत् इत्यक्षतयात्मानम् चिन्मात्रामवशेषितम् ज्ञात्वा द्वयोऽथभिर्मे दग्धजो निरिवानलः। इति श्रीमद्भागवते महापुराणे परमहंसम् संहितायाम् सप्तमस्कन्धे युधिष्ठिर नारद संवादे सदाचार निलय नाम द्वादशोध्याय।